यत्रोक्तम् आयुर्वेद स उच्यते हिताहितम् सुखम् दुःखम् आयुस्तस्य हिताहितम्